इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। डोनाल्ड ट्रम्प इत्यसौ संयुक्त राज्यामेरिकायाः सप्तचत्वारिंशत्तमाय राष्ट्रपतिपदाय शपथवचनं स्वीकृतवान्। असौ स्वीय द्वितीय कार्यकालाय शपथग्रहणम् अकरोत्। मुख्य न्यायाधीशः जॉन रॉबर्ट्स इत्येषः ह्यः रात्रौ वाशिंगटन डीसी नगरे कैपिटल रोटुंडा इत्यत्र ट्रम्प इत्यस्मै शपथवचनम् अददात्। जेडी वेन्स इत्येषः उपराष्ट्रपतित्वेन शपथग्रहणं स्वीकृतवान्। स्वकीये औद्घाटनिके सम्भाषणे राष्ट्रपतिः ट्रम्प इत्ययं मूल्यानां न्यूनीकरणे राष्ट्रियोर्जापत्कालस्य घोषणां कृतवान्, यद्धि तस्य प्रमुखोद्देशमासीत् इति। सः सबलतया अवोचत् यत् अत्यधिकव्ययेन, ऊर्जायाः वर्धमानमूल्येन च मुद्रास्फीतिसङ्कटः जातः। नूतनः राष्ट्रपतिः स्वस्य मन्त्रिमण्डलस्य विशालशक्तेः उपयोगेन वस्तूनां मूल्यानि न्यूनीकर्तुं निर्देशं दातुं प्रतिज्ञां कृतवान्। असौ अग्रे अघोषयत् यत् तस्य नेतृत्वे अधुना अमेरिकादेशस्य स्वर्णयुगस्य आरम्भः भवतीति। प्रधानमन्त्री नरेन्द्रमोदी डोनाल्ड ट्रम्प इत्यस्मै शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिक सन्देश पटले श्रीमोदिना लिखितं यत् असौ पुनरेकवारं मिलित्वा कार्यं सम्पादयितुं उभयोः देशयोः लाभाय, विश्वस्य उत्तम भविष्यस्य निर्माणाय च उत्सुकः अस्ति इति। केन्द्रीय जनजातीय कार्य विषयक मन्त्रालयः अद्य नवदिल्ल्याः भारत मण्डपे प्रधानमन्त्री जनमन इत्येनं विषयं समाश्रित्य जनपदाधिकारीणां राष्ट्रिय सम्मेलनं समायोजयिष्यति। एतस्मिन् सम्मेलने जनजातीय कार्य विषयकमन्त्री जुएल ओराव इत्यसौ, जनजातीय कार्य राज्यमन्त्री दुर्गादास उइके इत्येषः च सम्मिलितौ भविष्यतः। सम्मेलने षड् प्रमुखानि क्षेत्राणि भविष्यन्ति, येषु ग्रामीण विकासः, छात्रावासः, पेयजलापूर्तिः, आंगनवाड़ी इत्येतेषां संचालनं, बहुविषयक केन्द्राणि च सम्मिलितानि। सम्मेलनस्य उद्देश्यं तेषु जनपदेषु प्रगतिं समुचितं कर्तुमस्ति यत् परिष्कारस्य संभावना वर्तते। गणतंत्र दिवसस्य पथसंचलनं भारतस्य सांस्कृतिक विविधतां, सैन्यशक्तिं च प्रदर्शयितुं सज्जं वर्तते, यत्र संविधानस्य पञ्चसप्तति वर्षाणां क्रियान्वयन जनभागीदारी इत्येतयोः कृते विशिष्टं ध्यानं प्रदीयते। अस्मिन् वर्षे इण्डोनेशिया देशस्य राष्ट्रपतिः प्रवोवो सुवियांटो इत्येषः अस्य गणतंत्र दिवसस्य मुख्यातिथिः भविष्यति। नवदिल्ल्यां वार्ताहरान् सूचयन् रक्षासचिवः राजेश कुमार सिंहः सूचितवान् यत् विभिन्न राज्यानां केन्द्रशासित प्रदेशानां केन्द्रप्रशासनस्य मन्त्रालयानां विभागानां च अनेकानि रमणीयानि चित्राणि प्रदर्शयिष्यन्ति। सप्तति सदस्यात्मिकीयायाः दिल्ली विधानसभायाः निर्वाचनाय आहत्य नवनवत्यधिक षड्शतं प्रत्याशिनः नैर्वाचनिक रणे सन्ति। ह्यः नामांकन प्रत्यावर्तनाय अन्तिमं दिनम् आसीत्। दिल्ली विधानसभा निर्वाचनं आगामि मासस्य पञ्चमे दिनांके अथ च मतगणना अष्टमे दिनांके भविष्यतीति। उत्तराखण्ड राज्ये राज्यमन्त्रिमण्डलेन समान नागरिक संहिता स्वीकृता, यया राज्ये तस्याः कार्यान्वयनस्य मार्गः प्रशस्तः जातः। अयं निर्णयः देशस्य अन्येषु राज्येषु प्राधान्यं स्थापयिष्यति इति अपेक्ष्यते। वार्ताहरान् सूचयन् मुख्यमन्त्री पुष्कर सिंह धामी इत्येषः समान नागरिक संहितायाः प्रभावस्य विषये आशां प्रकटितवान्। सः अवदत् यत् उत्तराखण्डस्य समान नागरिक संहितायाः स्वीकरणं शेषभारतस्य कृते प्रेरणारूपेण कार्यं करिष्यति इति। वार्ताः।